समिद्यमानः प्रथमानुधम् मासमग्निभिरज्यते विश्ववारः सोऽतिष्ठेशो घृतनिर्निपावकः सुयज्ञो अग्निर्यजधाय देवान् यथायो गोत्रमग्ने पृथिव्या यथा दिवो जातवेदस्ति विद्वान् देवानेन हविषा यक्षि देवान्मनुष्यद्यज्ञम् प्रति रेममद्य त्रीण्यायोंषितव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ताभिर्देवानामवो यक्षि विद्वानथा भवयजमानाय संयोः अग्निम् सुदीतिम् सुदृशम् गृणन्तो नमस्यामस्तेड्यम् जातवेदः त्वाम् दूतमरतिम् हौ यवाहम् देवा गृण्वन्नमृतस्य नाभिम् जगत्वधोदापूर्वो अग्नेयजीयान्विता च सत्ता स्वधया च शम्भुः तस्यानुधर्मप्रयजाचिगिक्रोधानोधाध्वरम् देववीतौ